इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्य प्रभृति त्रयाणां देशानां अल्जीरिया मॉरिटानिया मालावी इत्येतेषां यात्रायाम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी प्रधानमन्त्री गतिशक्ति राष्ट्रिय परियोजनायाः वर्षत्रयाणां सम्पूर्तेः प्रशंसाम् अकरोत्। उक्तं च यत् एषा परियोजना भारतस्य आधारभूत संरचनायां परिवर्तनं करोति, सममेव सम्पर्कं च वर्धयति, येन विकसित भारतस्य परिकल्पनां साकारो भविष्यति। पोलैंड देशीय प्रधानमंत्री डोनाल्ड टस्क देशे अवैध प्रवासस्य निवारणाय केषांचन शरणाधिकाराणाम् अस्थायी निलंबनस्य घोषणां विहितवान्। कजाकिस्तान देशस्य आस्ताना नगरे प्रचल्यमाणायाम् एशियाई टेबल टेनिस इति प्रतियोगितायां देशस्य कृते प्रथमं कांस्य पदकं भारतस्य आयिका मुखर्जी सुतीर्था मुखर्जी इत्यनयोः शीर्ष महिला युगलेन विजितम्। अपि च शारजाह नगरे प्रचल्यमाणायाः महिला विंशति प्रतिविंशति क्रिकेट क्रीडायाः उपान्त्यचक्रे भारत ऑस्ट्रेलिया देशयोः मध्ये अद्य सायं स्पर्धा भविष्यति। अथ वार्ताः विस्तरेण। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्य प्रभृति त्रयाणां देशानां अल्जीरिया मॉरिटानिया मालावी इत्येतेषां यात्रायाम् अस्ति। निज यात्रा प्रवासे राष्ट्रपतिः द्विपक्षीयोपवेशनानि विधास्यति, अपि च भारतीय प्रवासिभिः साकं संवादं समाचरिष्यति। इयं भारतस्य राष्ट्रपतेः त्रयाणाम् अफ्रीकीय देशानां प्रथमा यात्रा भवेदिति। यात्रायाः प्रथमे चरणे राष्ट्रपतिः अल्जीरियायां प्रति यास्यति। तदनु राष्ट्रपतिः द्रौपदी मुर्मुः पीपल्स डेमोक्रेटिक रिपब्लिक ऑफ अल्जीरिया इत्येतस्य अध्यक्षेण अब्देल मजीद तेब्बौने इत्यमुना साकं द्विपक्षीयोपवेशनं करिष्यति। तदनन्तरं राष्ट्रपतिः भारत अल्जीरिया आर्थिक मञ्चं सिदी अब्देल्ला विज्ञान प्रौद्योगिकीय विश्वविद्यालयं च सम्बोधयिष्यति। यात्रायाः अन्तिमे चरणे राष्ट्रपतिः मुर्मुः अक्टूबर मासस्य 17 दिनांकतः 19 दिनांकपर्यन्तं मलावी देशं प्रति यास्यति। प्रधानमन्त्री नरेन्द्रमोदी प्रधानमन्त्री गतिशक्ति राष्ट्रिय परियोजनायाः वर्षत्रयाणां सम्पूर्तेः प्रशंसाम् अकरोत्। सः अवदत् यत् एषा परियोजना भारतस्य आधारभूत संरचनायां परिवर्तनं करोति, सममेव सम्पर्कं च वर्धयति, येन विकसित भारतस्य परिकल्पनां साकारो भविष्यति। एकस्मिन् सामाजिकान्तर्जालीय सन्देशमाध्यमेन श्रीमोदी प्रोक्तवान् यत् देशे विकासस्य गतिशक्तिः बहुविध सम्पर्कं च वर्धितमस्ति, तथा च विभिन्न क्षेत्राणां द्रुततरं विकासं सुनिश्चितमस्ति। सः अवदत् यत् विभिन्नानां हितधारकाणाम् एकीकरणेन संभारतन्त्रव्यवस्था सुदृढा अभवत्। विलम्बेन कार्याचरणे न्यूनता गता, नैकेषां जनानां कृते नवीनाः जीविकावसराः सृज्यन्ते। लोकसभाध्यक्षः ओम बिरला अद्यारभ्य अस्य मासस्य 17 दिनांकं यावत् जिनेवानगरे आयोक्ष्यमाणायाम् अन्तःसंसदीय संघस्य आईपीयू इत्याख्यस्य 49वीं सभायां संसदीय प्रतिनिधिमण्डलस्य नेतृत्वं समाचरिष्यति। श्रीबिरला इतोपि अधिकं शान्तिपूर्ण सतत भविष्याय विज्ञान प्रौद्योगिकी नवाचाराणाम् उपयोगः इत्यस्मिन् विषये सभां सम्बोधयिष्यति। तदनु असौ अस्य मासस्य 14 दिनांके जिनोवा नगरे भारतीय प्रवासिभिः समं वार्तां करिष्यति। अपरत्र असौ सभामध्ये अन्येषां संसदां स्वीयैः समकक्षैः सहापि संवादं करिष्यति। अवधेयं वर्तते यत् भारतीय प्रतिनिधिमण्डले एतस्मिन् राज्यसभायाः उपराष्ट्रपतिः हरिवंश सिंहः उभयोः सदनयोः महासचिवः अन्ये च संसत्सदस्याः सम्मिलिताः सन्ति। चतुर्विंशत्यधिक द्विसहस्रतम वर्षस्य प्रधानमंत्री इंटर्नशिप इति व्यावसायिक प्रशिक्षण योजनायाः पंजीकरण प्रक्रिया अद्य सायं पञ्चवादनात् pminternship.nca.gov.in इत्यत्र आरभ्यते। अस्मिन् वर्षे आयव्यय संकल्पना पत्रस्य प्रस्तुतेः पूर्वं घोषिता उपक्रमेण यूनां वास्तविक जीवने व्यापार वातावरणेषु हस्तगत अनुभवं प्राप्तुं सहयोगाय द्वादश मासस्य प्रशिक्षणं प्रदास्यति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। पोलैंड देशीयः प्रधानमंत्री डोनाल्ड टस्कः देशे अवैध प्रवासस्य निवारणाय केषाञ्चन शरणाधिकाराणाम् अस्थायी निलम्बनस्य घोषणां विहितवान्। ह्यः वारसा नगरे सिविक प्लेटफॉर्म पार्टीति सम्मेलने प्रधानमंत्री टस्कः यूरोपीय देशैः एतस्य निर्णयस्य स्वीकरणस्य आवश्यकतायाः उपरि सबलं प्रतिपादितवान्। सः अवदत् यत् शत्रुदेशः मानव व्यापारिणः च तस्य दुरुपयोगं कुर्वन्ति। प्रधानमंत्री श्री टस्कः अवदत् यत् देशे आगतानां जनानां विषये सर्वकारस्य नियन्त्रणं भवेत्। सः आश्वासनं दत्तवान् यत् सर्वकारः अवैध प्रवासस्य निवारणं करिष्यति। भारतस्य महत्वपूर्ण धार्मिक पर्वेषु अन्यतमा दुर्गापूजा अद्य दुर्गादेव्याः मूर्तीनां जलस्रोतेषु विसर्जनेन सह सम्पन्नतां प्राप्नोति। विविध मन्दिरेभ्यः परिसरेभ्यः च मूर्तयः विसर्जनार्थम् अलंकृतेषु ट्रक यान वाहनेषु शोभायात्रायाः माध्यमेन गच्छन्ति। राष्ट्रवादी कांग्रेस दल प्रमुखः शरद पवारः अद्य उक्तवान् यत् महाराष्ट्रस्य जनाः राजनैतिक परिवर्तनार्थम् उत्सुकाः सन्ति, तथा च आगामी राज्य विधानसभा निर्वाचनस्य परिणामे एषा भावना प्रतिबिम्बिता भविष्यति, विश्वासमपि प्रकटितवान्। सः मुंबई नगरे महाविकास अघाड़ी संयुतेः संयुक्त वार्ताहर सम्मेलने अमुं भावम् अवदत्। श्री पवारः अवदत् यद् राज्य प्रशासनं देशस्य सर्वोत्तमं प्रशासनम् आसीत्, महायुति शासने अस्य मनोबलं क्षीणं जातम्। महाविकास अघाड़ी संयुत्या विविध व्यवस्थायाः स्थितिः, महिला सुरक्षा, भ्रष्टाचारः, मादक द्रव्याणां समाह्वानं, कृषकाणाम् आत्महत्या, महाराष्ट्रात् उद्योगस्य स्थानान्तरणं च इत्यादिषु विविध विषयेषु सत्तारूढ महायुति सर्वकारः प्रहारः कृतः। अद्य अन्ताराष्ट्रिय आपत् समन दिवसो वर्तते। आपन्निवारणे शिक्षायाः महत्वं प्रकाशयितुम् अयं दिवसः आचर्यते। अस्मिन् अवसरे संयुक्तराष्ट्रसंघस्य महासचिवः एंटोनियो गुटेरेस् इत्येषः ऋतुदशाजन्य आपदाभ्यः बालान् संरक्षयितुम् अन्ताराष्ट्रिय परिकल्पनानाम् आवाहनं कृतवान्। सः अवदत् यत् समाजम् अर्थव्यवस्थां च विहाय आपदाः विशेषतया बालकानाम् उपरि विनाशकारकप्रभावं जनयति, येन तेषां शिक्षा, स्वास्थ्यं, सुरक्षा च प्रभाविताः भवन्ति। गुटरेशः इत्यनेन एतादृशानां विद्यालयानां निर्माणं कर्तुं जनेभ्यः आवाहनं विहितं, येन बालाः आपदाभ्यः सुरक्षिताः भवितुं शक्नुवन्ति। कजाकिस्तान देशस्य आस्ताना नगरे प्रचल्यमाणायां 24,000-2,000 एशियाई टेबल टेनिस इति प्रतियोगितायां देशस्य कृते प्रथमं पदकं भारतस्य आयिका मुखर्जी सुतीर्था मुखर्जी इत्यनयोः शीर्ष महिलायुगलेन ऐतिह्यं विनिर्मितमस्ति। अस्यां स्पर्धायां भारतीय महिलायुगलं कांस्य पदकं लब्धम्। शारजाह नगरे प्रचल्यमाणायाः 20-20 क्रिकेट क्रीडायाः उपान्त्यचक्रे भारत ऑस्ट्रेलिया देशयोः मध्ये स्पर्धा भविष्यति। भारतीय समयानुसारं इयं स्पर्धा 7:30 वादने भविष्यति। इति वार्ताः।